इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका निधि तिवारी। आदौ मुख्याः वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्यारभ्य जम्मू कश्मीरस्य द्विदिवसीय यात्रायाम् अस्ति। यात्रावधौ श्रीमोदी पञ्चशताधिकैक सहस्र कोटि रूप्यकाणां विकास परियोजनानां शिलान्यासम् उद्घाटनं च करिष्यति। तमिलनाडु राज्यस्य कल्लाकुरूची जनपदे विषाक्त मद्यपानैः 35 जनाः दिवंगताः। राज्यस्य मुख्यमन्त्री मृतकानां परिजनेभ्यः 10 लक्ष रूप्यकाणां अनुग्रहराशेः घोषणां कृतवान्। पटना उच्च न्यायालयेन वञ्चितवर्गेभ्यः आरक्षणं 50% वर्धित्वा 65% यावत् कर्तुं बिहार प्रशासनस्य निर्णयः निरस्तीकृतः। मुम्बईनगरे अस्य च उपनगरीय क्षेत्रेषु नैरन्तर्येण वृष्टिः समेधमाना वर्तते। राष्ट्रिय राजधान्यां दिल्ल्याम् उष्णप्रकोपात् शैथिल्यस्य सम्भावना दृश्यते। अपि च आईसीसी इत्येतस्यां 20-20 क्रिकेट विश्व चषक प्रतिस्पर्धायां इंग्लैण्डदलेन वेस्ट इंडीज दलं सेंट लूसिया नगरे 8 पराजितम्। अद्य भारतस्य प्रतिस्पर्धा अफगानिस्तान दलेन सह भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी अद्य आरभ्य जम्मू कश्मीरस्य द्विदिवसीय यात्रायाम् अस्ति। श्रीमोदी पञ्चशताधिकैक सहस्र कोटि रूप्यकाणां 84 प्रमुखानां विकास परियोजनानां शिलान्यासम् उद्घाटनं च करिष्यति। परियोजनासु मार्ग परिवहन संरचनाः, जलापूर्ति योजनाः, उच्च शिक्षायां संरचनागत सम्बद्धाः परियोजनाः च सन्ति। प्रधानमन्त्री चेनानी पटनीटॉप नाशरी खण्डस्य संशोधनं प्रौद्योगिक सम्पदा विकासार्थं 6 स्नातकोपाधि महाविद्यालयानां निर्माण सदृशानां परियोजनानां आधारशिलामपि संस्थापयिष्यति। श्रीमोदी श्रीनगरे शेरे कश्मीर अन्ताराष्ट्रिय सम्मेलन केन्द्रे यूनां सशक्तीकरणं जम्मू कश्मीरस्य परिवर्तनम् इत्याख्ये कार्यक्रमे भागम् अपि भजिष्यति। जम्मू कश्मीरस्य लब्ध प्रतिष्ठित यूनैः सह वार्ताम् अपि विधास्यति। 2000-अधिकेभ्यः युवभ्यः नियुक्तिपत्रमपि असौ वितरिष्यति। तदनु श्रीमोदी एसकेआईसीसी श्रीनगरे 10वां अन्ताराष्ट्रिय योग दिवस कार्यक्रमे भागं भजिष्यति। तमिलनाडु राज्यस्य कल्लाकुरूची स्थले विषाक्त मद्यपानैः 35 जनाः दिवंगताः। 90%+ च पुड्डुचेर्याः कल्लाकुरूची सेलम जिप्मर क्षेत्राणां विभिन्नेषु चिकित्सालयेषु उपचाराधीनाः वर्तन्ते। घटनां निधाय कल्लाकुरूची जनपदस्य जनपदाधिकारी अन्ये च 10 अधिकारिणः पदच्युताः अभवन्। घटनायाः प्रमुखारोपी बुटलेकर चिन्नादुरई निगडितः। तस्य पार्श्वे अधिगताः 200-लीटर्मिताः मद्याः परीक्षणार्थं सम्प्रेषिताः। ह्यः रात्रौ कल्लाकुरूची जनपदे वार्ताहरान् तमिलनाडोः स्वास्थ्यमन्त्री एम सुब्रह्मण्यम् अकथयत् यत् विषाक्त प्राप्त मध्ये मेथानॉल इत्यस्य अधिका मात्रा प्राप्ता अस्ति। घटनायाः उच्चस्तरीय निरीक्षणार्थम् अपि आदेशः प्रदत्तः। पटना उच्च न्यायालयेन बिहारराज्ये प्रशासकीय वृत्त्यवसरेभ्यः शैक्षणिक संस्थानेषु वञ्चितवर्गाणाम् अन्यवञ्चितवर्गाणाम् अनुसूचितजाति अनुसूचितजनजात्योः कृते 50% आरक्षणं वर्धयित्वा 65% यावत् कर्तुं बिहार प्रशासनस्य निर्णयः निरस्तीकृतः। मुख्य न्यायाधीशः के विनोदचन्द्रन न्यायमूर्ति हरीशकुमार इत्यनयोः एकः पीठः आरक्षणं 50% वर्धित्वा 65% कर्तुं संवैधानिक वैधतां समाह्वान युतासु याचिकासु वादश्रवणस्य अनन्तरं अस्य वर्षस्य मार्चमासस्य 11 निर्णयः यथावत् स्थापितः आसीत्। तत्रैव झारखण्डराज्ये जात्याधारित सर्वेक्षणं भविष्यति। अयं निर्णयः मुख्यमन्त्रिणः चम्पई सोरेनस्य अध्यक्षतायां मन्त्रिमण्डलस्य एकस्मिन् उपवेशने गृहीतः। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। मुम्बई नगरस्य अपि च अस्य उपनगरीय क्षेत्रेषु ह्यः आरभ्य नैरन्तर्येण वृष्टिः समेधमाना वर्तते। राष्ट्रिय राजधान्यां दिल्ल्याम् उष्णप्रकोपात् शैथिल्यस्य सम्भावना अपि दृश्यते। ऋतुविभागेन मुम्बई नगराय मध्यम वृष्टेः पीतवारिणिकी सञ्चेतना, पालघर जनपदाय रक्तवारिणिकी, ठाणे जनपदाय च नारंगवारिणिकी जनसंचेतना प्रख्यापिता। रायगढ़, रत्नागिरी, चन्द्रपुर, गढ़चिरौली जनपदेभ्यः पीतवारिणिकी जनसंचेतना अपि प्रख्यापिता ऋतुविभागेन। राष्ट्रिय राजधानी दिल्लीं समेत्य उत्तर भारतस्य विविधाः भागाः भीषणातिभीषण उष्णप्रकोपस्य अंके सन्ति। दिल्ल्याः सफदरजंग चिकित्सालये केवलं चतुर्विंशति होरायाः अवधौ एव ग्रीष्मसम्बद्धैः रोगैः 13 जनानां मृत्यु जाता। तत्रैव 33 रोगिणः उपचाररताः सन्ति। दिल्ल्याः एव राममनोहर लोहिया चिकित्सालये ह्यः यावत् 9 रोगिणः मृत्युं प्राप्तवन्तः। अन्येषु च उच्चचिकित्सालयेष्वपि ग्रीष्मप्रकोपस्य रोगिणां संख्या प्रवर्धति एव। स्वास्थ्यमन्त्रालयेन ह्यः एकः दिङ्निर्देशः प्रख्यापितः यत् यस्मिन् राज्यानां स्वास्थ्यविभागान् अकथयत् यत् ते भीषण ग्रीष्म ऋतोः कारणेन सम्मुखागतानां रोगाणां त्वरितमेव निवारणाय तत्पराः भवेयुः, अपि च ससमयम् उपचारसामग्रीम् उपलब्धयितुं व्यवस्थाः अपि कुर्युः। केन्द्रीय पर्यावरण वन जलवायु परिवर्तन मन्त्री भूपेन्द्र यादवः अद्यारभ्य उत्तराखण्डस्य द्विदिवसीय यात्रायां भविष्यति। असौ अद्य टिहरी क्षेत्रे नरेन्द्रनगर वन प्रभागस्य वनाग्निना प्रभावित क्षेत्राणां यात्रां विधाय स्थितेः समाकलनं करिष्यति तथा च विभागस्य व्यवस्थायाः अपि समीक्षां करिष्यति। श्रीयादवः श्वः अन्ताराष्ट्रिय योग दिवसस्यावसरे देहरादून स्थिते इन्दिरा गांधी राष्ट्रिय वन अकादम्यां भारतीय वन सेवा केन्द्रीय राज्य वन सेवा अकादम्ययोः प्रशिक्षु अधिकारिभिः सह योगाभ्यासं करिष्यति। श्रीयादवः अद्य सूरजकुण्ड क्षेत्रे एक पेड़ मां के नाम इत्यस्य कार्यक्रमस्य अन्तर्गतं मन्त्रालयस्य अधिकारिभिः कर्मचारिभिः सह वृक्षारोपण कार्यक्रमे भागं भजितवान्। अस्मिन् अवसरे श्रीयादवः प्रदर्शन्याः समाकलन अपि कृतवान्। दिल्ल्याः एकः न्यायालयः मद्यनीति प्रवञ्चनायाः सम्बन्धिते धनशोधन प्रकरणे मुख्यमन्त्रिणः अरविन्द केजरीवालस्य मुक्तियाचिकायाम् अद्य स्वस्य आदेशः सुरक्षितः स्थापितः। विशिष्ट न्यायालयस्य राउज एवेन्यू इत्यस्य अवकाश न्यायाधीशेन न्यायबिन्दु इत्यनेन प्रवर्तन निदेशालय पक्षतः अतिरिक्त उच्च विद्याधिकारिणः एस वी राजू इत्यस्य याचिकां पूरयित्वा निर्णयः यथावत् स्थापितः अस्ति। विदेशमन्त्री डॉ एस जयशंकरः श्रीलंकायाः निजाधिकारिक यात्रान्तर्गतम् अद्य कोलम्बो नगरं सम्प्राप्तवान्। स्वीय यात्रावधौ डॉ जयशंकरः उभयोः देशयोः द्विपक्षीय सहभागित्वस्य व्यापकेषु प्रसंगेषु श्रीलंकादेशस्य आध्यक्षेण सह उपवेशनानि करिष्यन्ति। आईसीसी इत्येतस्यां 20-प्रतिविंशति क्रिकेट विश्व चषक स्पर्धायाः सर्वोच्चाष्ट द्वितीय समूहस्य स्पर्धायां इंग्लैंड दलेन वेस्ट इंडीज दलं सेंट लूसिया नगरे 8-0 पराजितम्। अद्य भारतस्य प्रतिस्पर्धा अफगानिस्तान दलेन सह भविष्यति।